यादृक् तादृगिहास्तितस्य वशतो यस्य स्वभावो हि यः कर्तुं नैष कथञ्चनापि हि परैरन्यादृशः शक्यते अज्ञानं न कदाचनापि हि भवेत् ज्ञानं भवत् सन्ततं ज्ञानिन् भुङ्क्ष्य परापराधजनितो नास्तीह बन्धस्तव।